सर्वेषां स्वागतं. श्लोकैः आरम्भं कुर्मः. अस्तु भगिनि, आरम्भं करोतु.
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये. सरस्वती नमस्तुभ्यं वरदे कामरूपिणी, विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा. गुरुब्रह्मा गुरुविष्णु गुरुर्देवो महेश्वरः, गुरुसाक्षात् परं ब्रह्म तस्मै श्रीगुरुवे नमः. ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं कर्वावहै, तेजस्विनावधीतमस्तु मा विद्विषावहैः. ॐ शान्तिः शान्तिः. अग्रे वदामि वा?
आं भगिनि.
ऐ एम् नाट् वेरि श्योर् बट् ऐ विल् ट्रै.
आम् आं भगिनि.
रामो राजमणि सदा विजयते, रामं रमेशं भजे. रामेण विहिता निशाचर च मूः रामाय
नमो नमः. अहं सविता अस्मि भगिनि.
रामानासि परायणं परतरं, रामस्य दास्योऽस्म्यहं. रामे चित्तलय सदा भवतु मे भो राम मामुद्वर.
बहु उत्तमं भगिनि, धन्यवादः. एकं सुभाषितं पश्यामः. द्वितीयसुभाषितम् अस्ति. पृथिव्यां त्रीणि रत्नानि जलम् अन्नं सुभाषितं, मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते इति. सो अत्र प्रथमवाक्यं सुलभः एव खलु. पृथिव्याम् इत्युक्ते भूमौ, त्रीणि रत्नानि अति उत्तमानि वस्तूनि इति. जलम् अन्नं सुभाषितं, त्रीणि वस्तूनि रत्नानि इति. परन्तु मूढजनाः पाषाणखण्डाः इत्युक्ते वयं किं रत्नम् इति वदामः, लौकिकभाषया रत्नम् इति अस्ति खलु, रत्नम् अपि च मौक्तिकम्, एतादृशवस्तूनि स्वीकृत्य एतानि एव बहु अमूल्य बहु मुख्यवस्तु इति मूढाः चिन्तयन्ति. परन्तु ते वस्तुतः पाषाणखण्ड, पाषाणखण्ड इत्युक्ते तस्य मूल्यमपि नास्ति, तादृश खण्डः एव इति, साधारणखण्डाः एव. अतः वस्तुतया रत्नानि इति वदामः चेत् जलम् अन्नं सुभाषितम् एतानि एव मुख्यवस्तूनि इति सुभाषितं वदति. सो अत्र किं लिखितमस्ति, पृथिव्यां केवलं त्रीणि रत्नानि सन्ति, जलम् अन्नं तथा च सुभाषितं. मूढजनाः यानि रत्नानि इति वदन्ति ते वस्तुतः पाषाणखण्डाः एव इति. अस्तु, अग्रे गच्छामः वा?
Bhagini, I didn't understand the second two lines.
Astu. So, atra dvitiya vakyam evam asti. Mooda janaihi. So, atra karmani prayoga, Bhagini. That's why you didn't understand. So, atra karmani prayoga asti. Sadharana vakya mooda janaha yani ratnani iti vadanti te वस्तुतः पाषाणखण्डाः एव इति. कर्मणि प्रयोगे मूढजनैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते, ते रत्ना इति ते चिन्तयन्ति. ते चिन्तयन्ति एतानि एताः खण्डाः रत्नाः इति ते चिन्तयन्ति, परन्तु ते वस्तुतया रत्नाः नास्ति, साधारणपाषाणखण्डाः एव इति. ओके, सो अत्र वर्ड् बै वर्ड् मीनिङ्ग् इति वदामः चेत् is ordinary stone iti
khandeshu means is saptami, right?
No, khandeshu paashana khandeshu ratna sanyaha, so they think they are very special, like all these ratnams that we talk about, all the navaratna, right?
Yeah.
So the people who don't appreciate the jalam, annam and subhashitam, they think these are all, annam is ordinary, jalam is ordinary, subhashitam is ordinary, but these are the most important. So they make the jewelry. Abharanani kurvanti etani ratnani swikritya parantu tani ratnani iti na. तानि रत्नानि इति मा चिन्तयतु, ते रत्नाः न, ते पाषाणखण्डाः एव. पाषाणखण्डा इत्युक्ते आर्डिनरि स्टोन्स् लैक् पेबल्स्. नो, पाषाणखण्ड मीन्स् पेबल्स्, खण्ड मीन्स् पीसस्, लैक् शिला इस् अ बिग् स्टोन्. Shilakhandaha is a piece of stone.
Mm-hmm.
Pashanakhanda means it is a pebble, like a big rock. It broken down into...
What is Ratna Sanya mean?
Ratna Sanya, there is a visarga.
They think they are symbolic of...
No. Sanya means anything that is known. Like a vignya, like, you know.
They consider it to be ordinary gem?
They consider it to be ratna. Like, they consider the Pashana Khanda to be ratna sanya. They think it is ratna. They think it is, I mean, ratna means, like, it is very valuable.
It's not a gem?
It is a gem. Mm-hmm. So they think these gems are very valuable. These are all not people who are knowledgeable. Moodaha.
No, I understand moodaha. They're the deluded people.
Correct.
So they think, what is the ratna? Vidhiyate means they know it to be, right?
Correct. They think that the ratnas are the actual things in the
valuable.
Yeah, they are the most valuable things on earth.
Yeah, but actually it is water and annam.
Correct. Water, annam and subhashitam are the real valuable things on this earth, not the ratna.
Okay, so they are saying that jalam, annam and subhashitam are more valuable than these ordinary gems that they consider to be valuable.
Correct.
Okay. Got it. Thank you.
Bhagini.
Confused.
Anya prashna hasti va?
Bhagini, can I say the words in which I understand the Subhashitam?
Nischayana.
The fools think the precious stones are the really precious, whereas this, what do you call it, three things. Water, food and Subhashitam are more precious than these precious stones. What it says?
No, it says, so here they have written in ordinary words, okay? Mooda janaha yani vastuni ratnani iti vadanti. So we look at stones and say, oh, these are diamonds, very valuable. So they say, these people are mooda janaha.
Okay.
मूढजनाः यानि रत्नानि इति वदन्ति, ते वस्तुतः रत्नानि न पाषाणखण्डाः एव.
Got it, baby.
Okay. Okay, ekanimsham, I'll get my panchatantra katha. नष्टपिष्ट उपायेन शक्यं सर्वं. अस्तु, अग्रिमकथा एवमस्ति, उपायेन शक्यं सर्वम्. कोऽपि पठति वा?
Can I read?
Wait, we'll go in order. क्षम्यतां भगिनि. परमेश्वर महोदय.
कस्मिंश्चित् अरण्ये बासुरकः नाम सिंहः वसति स्म. सः अतीव शक्तिशाली. बासुरकः प्रतिदिनम् अनेकान् मृगान् विना कारणं मारयति स्म. एतेन वनस्य अन्ये मृगाः कष्टम् अनुभवन्ति स्म. करि अरण्ये अरण्ये सिंह वसति. नाम बासुरकः.
बासुरकः नाम
सिंहः वसति. सः अतीव शक्तिशाली. ओ प्रतिदिनं बासुरकः अनेकान् मृगान् विना कारणं मारयति.
खादनार्थं न मारयति.
एतेन वनस्य अन्ये मृगाः कष्टम् वनेन अन्ये मृगाः कष्टम् अनुभवन्ति.
कष्टम् अनुभवन्ति स्म. सम्यक्. सो अत्र कस्मिंश्चित्, सो अत्र कस्मिन् अरण्ये, कस्मिंश्चित् अरण्ये, सो अत्र कस्मिन् नकारः अस्ति. अत्र नकारः, एकनिमिषम्, अत्र कस्मिन् इति नकारः अस्ति खलु. नकारः अनुस्वारः शकारः इति भवति. कस्मिन् प्लस् चित्, कस्मिन् कस्मिन् सो अत्र न भवति, परन्तु नकारस्य स्थाने अनुस्वारः अपि च शकारः भवति. अनन्तरं च अपि अस्ति. अनुस्वारः शकार, न स्थाने अनुस्वारः शकार. अन्य किमपि अस्ति वा व्याकरणरीत्या? कस्मिंश्चित् सो अत्र कस्मिन् नगरे, कस्मिन् अरण्ये, अरण्ये इति सप्तमी, अतः कस्मिन् नाम वसति अतीवशक्तिशाली. अत्र शक्तिशाली इति लैक् योगी, स्वामी इव. ईकारान्तपदम् अस्ति चेत् अपि पुल्लिङ्गपदं शालिन् इति भवति मूलरूपं. शालिन् शालिन् प्रातिपदिकं शाली, शक्तिशालिनी स्त्रीलिङ्गे, विद्यार्थी, विद्यार्थिनी इति. अतीव शक्तिशालिनी भवतः. प्रतिदिनम् अनेकान् मृगान्, बहुवचनं सो अत्र अत्र एक इति पदस्य बहुवचनम् अनेक अनेक अनेक
अनेक
देट् मीन्स् नाट् वन् मोर् देन् वन् अनेक अनेक पुल्लिङ्ग बहुवचनम् अतः अनेकान् ए अनेकान् मृगान् विना कारणं कारणं विना विना कारणं कारणं विना मारयसि स्म एतेन एतेन कार्येण एतेन इति इति यदा वयं पश्यामः पूर्वं यत् उक्तं तेन इति एतेन वनस्य अन्ये मृगाः अत्र अन्ये मृगाः कष्टम् अनुभवन्ति स्म इति अस्तु अग्रे शारदा भगिनि एकनिमिषम् अन्य अन्य कः अस्ति इति पश्यामि सागरी भगिनी अपि अस्ति अस्तु अस्तु शारदा भगिनि
अतः एकदा ते मृगाः सम्भूय गत्वा भासुरकं प्रार्थितवन्तः स्वाम्यं विना कारणम् एवं मृगाणां मारणेन भवतः कः लाभः एकस्य एव मृगस्य खादनेन भवतः उदरं पूर्णं भवति किल अतः अद्य आरभ्य भवतः आहारार्थं प्रतिदिनम् एकं मृगं वयम् एव प्रेषयिष्यामः भवान् तं मृगं खादतु अन्यमृगान् न पीडयतु इति अतः सर्वाः मृगाः सिंहस्य समीपं गत्वा प्रार्थितवन्तः कारणं विना भवतः का लाभः मृगाणां मारणेन एकः मृगः पर्याप्तं किल
सम्यक् सम्यक् भगिनि
अतः अद्य आरभ्य आहारार्थं प्रतिदिनं एकमेकं मृगं प्रेषयिष्यामः भवान् तं मृगं खादतु अन्यमृगान् न मारयतु
सम्यक् सो अत्र अन्य किमपि विषयः अस्ति वा इति पश्यामि मृगाः सम्भूय इत्युक्ते मिलित्वा सम्भूय गत्वा बासुरकं प्रार्थितवन्तः स्वामिन् सो अत्र सम्बोधन कारणं विना एवम् अत्र एतेन इति अस्ति खलु एवम् एवं मीन्स् एतादृशं मृगान् मारणेन लाभः कः इति मृगस्य खादनेन भवतः उदरं पूर्णं भवति उदरं पूर्णं अतः अद्य आरभ्य आहारार्थम् अस्तु अन्यविषयः अस्ति वा प्रश्नः अस्ति वा
भगिनि स्वामिन् टु कम् एज़् सम्बोधनम् व्हाट् इस् द प्रथमा विभक्ति वर्ड् विल् बी
लैक् स्वामी लैक् शक्तिशालिन् स्वामी
दट् इस् पुल्लिङ्गम् ईकारान्तपदम्
न न न इट् इस् आक्चुलि नकारान्तपदम् न स्वामिन् शक्तिशालिन्
स्वामी इस् नाट् अ वर्ड् अट् आल्
No, no, no. Swamin is the pratipadikam. Swami is the prathamavibhakti pullingapadam.
Okay, it's a nakarandapadam, okay.
Is it not sambodhana?
Yeah, this is sambodhana, but it is also the pratipadikam.
Like, Shalin. Swami then? No, only because it's nakarandapadam, it will be Swamin as sambodhana?
Aam, aam, bhagin.
Okay.
उदाहरणार्थं भगवत् इति अस्ति, भगवन् यत्र सम्बोधन, परन्तु तत्र मूलपदं भगवत्, परन्तु अत्र मूलपदम् अपि स्वामिन् एव. अत्र अपि शक्तिशालिन् मूलपदं शक्तिशालिन्, सम्बोधनापि शक्तिशालिन्, परन्तु प्रथमाविभक्तिरूपं शक्तिशाली स्वामी इति भवति. अस्तु, अग्रे सागरी भगिनी.
आं भगिनि, तदा बकासुरकः सोरि
वयं बकासुरः जानामि, जानीमः.
बासुरकः उक्तवान् तथा एव अस्तु, परन्तु यस्मिन् दिने मम समीपं मृगः न आगमिष्यति तस्मिन् दिने सर्वान् अपि मृगान् मारयिष्यामि एव इति.
अग्रिममपि पठतु.
मृगाः तत् अङ्गीकृतवन्तः, ततः आरभ्य प्रतिदिनं जातिक्रमेण एकः मृगः बासुरकस्य आहारत्वेन गच्छति स्म. बासुरकः तं खादति स्म. अन्ये मृगाः निर्भयेन अरण्ये सञ्चरति स्म. बासुरकः अङ्गीकृतवान् एक मृगः प्रेषयतु इति उक्तवान्. परन्तु एकदिनं मृगः न आगच्छति चेत् सर्वान् मृगान् मारयिष्यामि
सम्यक्
इति उक्तवान्.
सम्यक्, सम्यक्, अस्तु.
तथा आरभ्य मृगः क्रमेण एकः मृगः प्रेषयिष्यन्ति. सर्वान् मृगान् अरण्ये सुखेन अटन्ति स्म.
सर्वे मृगाः अटन्ति इति. सम्यक्, सम्यक् भगिनि. अस्तु, अस्तु, अग्रे उषा भगिनि. म्यूट् मध्ये अस्ति वा भगिनि?
भगिनी क्षम्यताम्. इन् द प्रीवियस् पाराग्राफ् बासुरकस्य आहारत्वेन, वाट् इस् दट् आहारत्वेन?
अस्तु, अन्य किमपि अस्ति वा? एकनिमिषं. तथैव अस्तु, तथा एव. सो अत्र तथा एव, तथा, तथा न, तथा एव, तथैव, तथैव, परन्तु यस्मिन् दिने, यस्मिन् दिने इत्युक्ते यत् दिने, यस्मिन् दिने मम समीपं मृगाः न आगमिष्यति तस्मिन् दिने यत् तत् यस् यत् तत् सर्वान् अपि मृगान् मारयिष्यामि. मृगाः तत् अङ्गीकृतवन्तः, आरभ्य प्रतिदिनं जातिक्रमेण, जातिक्रमेण एकः मृगः बासुरकस्य आहारत्वेन इत्युक्ते आहारार्थं गच्छति. बासुरकस्य आहारार्थं गच्छति इति
तृतीया ओर् आहारत्वेन
आहारत्वेन तृतीया इव अस्ति परन्तु तृतीया नास्ति. यत् तत् इति अस्ति खलु सो अत्र यस्मिन् यस्मिन् तस्मिन् यत् तत् सप्तमी विभक्ति यस्मिन् यस्मिन् तस्मिन् तत्र आहारार्थम् अहं न जानामि व्याकरणं किम् इति. वासरकः तं खाद अन्ये मृगाः निर्भयेन भयं विना निर्भयेन अरण्ये सञ्चरन्ति.
निर्भयेन
तृतीया अस्तु अस्तु भगिनि पठतु.
कदाचित् जातिक्रमेण केनचित् शशकेन भासुरकस्य आहाररूपेण गन्तव्यम् आपतितम्. सः शशकः
अस्तु सः शशकः.
Okay, let me first read the sentence again. Kadachit means kada.
Kadachit is it ekada.
Oh, okay. Ekada. Once upon a time. Okay. Jati kramena kenachit shashakena bhasurukasya ahara rupena gantavyam apatitam. He came and
योगे एकदा जातिक्रमेण एकः शशकः बासुरकस्य आहाररूपेण गच्छति अथवा गतवान्.
गन्तव्यम् आपतितम्
सो दिस् इस् द कर्मणि प्रयोग भगिनि पासिव् वाय्स्
सो इट् वास् टैम् फार् हिम् टु गो रैट् सिंहसमीपं प्रस्थितवान्. मार्गे एकः कूपः आसीत्. कूपस्य उपरि गमनसमये शशकः स्वस्य प्रतिबिम्बं तत्र दृष्टवान्. तदा तस्य मनसि एकः उपायः स्फुरतिः. अहं भासुरकम् एतस्मिन् कूपे पातयामि इति चिन्तयन् सः विलम्बेन भासुरकस्य समीपं गतवान्.
एकः
शशकः आसुरकस्य आहाररूपेण गतवान्. सः शशकः दुःखेन सिंहसमीपं प्रस्थितवान्. So he was already there.
Simha samipam gantum arambam kritavan. Prayanati arambam kritavan. He started. Arambam kritavan.
Arambam kritavan. Marge ekah koopah asit. Koopasya upari gamana samaye shashakah swasya pratibimbam tatra dashtavan. जले कूपस्य जले रैट् तदा तस्य मनसि एकः उपायः स्फुरतिः
स्फुरितः
उपायः चिन्तितवान्
उपायं चिन्तितवान्
अहं भासुरकम् एतस्मिन् कूपे पातयामि इति चिन्तयन् सः विलम्बेन भासुरकस्य समीपं गतवान् सो मार्गे कूपस्य उपरि गमनसमये सः स्वस्य प्रतिबिम्बं दृष्ट्वा चिन्तितवान् अहं भासुरकम् एतस्मिन् कूपे पातयामि इति
सम्यक् अग्रे
सः विलम्बेन भासुरकस्य समीपं गतवान्
विलम्बेन गतवान् समये न गतवान् अस्तु समये न गतवान्
समये न गतवान्
अस्तु सम्यक् श्रीनिवास महोदय
आं भगिनि अद्य मृगः समये न आगतः इति भासुरकः अतीव कुपितः आसीत् तदा शशकः मन्दं मन्दं गत्वा प्रणम्य तस्य पुरतः स्थितवान् तं तर्जयन् भासुरकः उक्तवान् रे शशकादं समये आगन्तव्यम् इति परिज्ञानं नास्ति वा
एकनिमिषम् अग्रिमपुटं कुत्र अस्ति इति पश्यामि एकनिमिषम्
शशकादं समये आगन्तव्यम् इति परिज्ञानं नास्ति वा भवतः भवान् विलम्बं कृतवान् किल अतः प्रथमं भवन्तं खादित्वा अनन्तरं सर्वं मृगकुलमेव नाशयिष्यामि इति Now let us translate it. शशकस्य विलम्बेन आगत्येन सिंहः कुपितः भवति
उत्तमम्
इस् इट् हेपेन्ड् टु द रैट् ओके गुड् कुपितः भवति शशकं मन्दं मन्दं गत्वा सिंहस्य परितः तिष्ठति पुरतः तिष्ठति भासुरः उक्तवान् तं समयेन न आगतवान् विलम्बं कृतवान् अतः प्रथमम् अहं भवन्तं खादिष्यामि अनन्तरं मृगकुलमेव नाशयिष्यामि इति
उक्तवान्. सो अत्र नूतनविषयः किमपि अस्ति वा इति पश्यामि. मन्दमन्दं गत्वा प्रणम्य इत्युक्ते नमस्कारं कृत्वा इति, नमस्कृत्य तस्य पुरतः स्थितवान्. तर्जयन् सो अत्र शत्रुप्रत्यय, तर्जयन् बासुरकः उक्तवान्, तर्जयित्वा न तर्जयन् तस्मिन् समये एव इति. शशक अधम, अधम इत्युक्ते नीच इति, नीचशशक इत्युक्ते सम्यक् भवान् उत्तमः नास्ति, नीचः, नीचशशकः भवान् इति. समये न आगतवान्, विलम्बेन आगतवान्. आगन्तव्यम् इति परिज्ञानं, न जानाति किम् इति, न जानाति वा इति. भवान् विलम्बं कृतवान् किल, अतः अन्यान् अपि कारयामि. अस्तु, शशक अधम, अधम इति, अधम शशकाधम इत्युक्ते भवान् नीच शशकः इति. आं भगिनि पृच्छतु.
परिज्ञानम् इत्युक्ते किम्?
परिज्ञानम् इत्युक्ते ज्ञानमेव. समये आगन्तव्यम् इति ज्ञानं नास्ति वा भवतः, भवान् न ज्ञातवान् वा इति.
धन्यवादः भगिनि.
अस्तु अस्तु, अग्रे उमाकृष्णन् भगिनि.
आं भगिनि, तदा शशकः विनयेन उक्तवान्, स्वामिन् मया अपराधः न कृतः, भवतः समीपं समये आगन्तव्यम् इत्येव अहं प्रस्थितः, परन्तु मार्गे अन्यः एकः सिंहः आसीत्, सः मां दृष्ट्वा पृष्टवान् भवान् कुत्र गच्छति इति. बासुरकस्य आहारार्थं गच्छामि इति अहम् उक्तवान्. तदा सः उक्तवान्, एतत् मम आरण्यम्, अत्र सर्वे अपि मृगाः मम आज्ञा पालयेयुः. बासुरकः कुत्र आसीत्? सः चोरसिंहः स्यात्, भवान् तम् अत्र आनयतु, आवयोः मध्ये युद्धं भवतु, युद्धे यः जयति सः एवं भवन्तं खादतु इति. तस्य सूचनानुसारम् अहम् अत्र आगतवान्, अतः एवं विलम्ब जातः इति. शशक बहु विनम्र विनम्रेण स्वामिन् अहम् अपराध करोमि, भवत समीपं आगतवन्त समये अहं मार्गे अन्य सिंह दृष्टवान्. सः मम दृष्ट्वा उक्तवान् अहं कुत्र गच्छामि इति. अहं वदामि, केन से बासुरकस्य आहारार्थं गच्छामि, सिंह उक्तवान् वनस्य अहं 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 उक्तवान् सिंह उक्तवान् इति आरण्य मम सोरि आरण्य मम अस्ति अस्ति मम आज्ञा पालनं करोतु
सम्यक् भगिनि
बासुरक कुत्र आसीत् कुत्र आसीत् पृष्टवान् चषक उक्तवान् अहं बासुरक कुत्र आसीत् उक्तवान् इति इति प्रेषयामः मम समीपे प्रेषयामः
मम समीपे प्रेषयतु
प्रेषयतु
न आवां युद्धं कुर्वः
भगिनि
आवां युद्धं कुर्वः
युद्धं कुर्वः भवन्तं खादतु इति उक्तवान्
युद्धे कः युद्धे यः जयं प्राप्नोति
युद्धे कः जयं प्राप्नोति एव भवन्तं खादतु
भवन्तं खादतु इति अतः एव
अतः एव विलम्ब
अत एव विलम्बः जातः सो अत्रापि कर्मणि प्रयोगः भगिनि सो कथायां सर्वत्र कर्मणि प्रयोगः भवति लैक् द पास्ट् That is why it became late इति अतः एव अलम् अहं विलम्बेन आगच्छामि इति सो दट् इस् द कर्तरि एक्टिव् वाय्स् अतः एव अहं विलम्बेन आगच्छामि सो अत्र नूतनपदं किम् इति पश्यामि अपराधः इत्युक्ते दोषः अहं मया अपराधः न कृतः अहं दोषं न कृतवान् कर्तरि प्रयोगः एवम् अस्ति मया इति तृतीया विभक्ति भवति कर्मणि प्रयोगे मया अपराधः न कृतः इति अपराधः पुल्लिङ्ग अतः कृतः परन्तु अहम् अपराधं न कृतवान् एवं भवति प्रश्नः वा किमपि कोऽपि प्रश्नः वा
भगिनि
अस्तु समये आगन्तव्यम् इत्येव अहं प्रस्थितः इत्युक्ते सः समये आगन्तव्यम् इति चिन्तयित्वा एव अहं शीघ्रं ततः आरम्भं कृतवान् परन्तु मार्गे एकः सिंहः अस्ति सः मां कुत्र गच्छति बासरकस्य आहारम् एवं सुलभः एव एतत् मम अरण्यम् इति सः उक्तवान् अत्र सर्वे मृगाः मम आज्ञामेव पालयेयुः पालयेयुः इति अन्यविधलकारः वि काल् इट् विधिलिङ्ग् लकार मे यु मस्ट् इति अर्थे लैक् पालनीयं आगन्तव्यं पालनीयम् इति लैक् वेन् वि से आगन्तव्यम् आर् आगमनीयं देन् इट् बिकम्स् कर्मणि प्रयोग ओके सो दिस् सो द when we say tavyam mananiyam, we use the karmani prayoga. Here we use kartari prayoga. Sarve mrugah, atra karmani nasti. Mrugaihi palaniyam, like that it will be. Agnya palaniya it will be. Parantu atra kartari prayoga asti, ataha mrugah mama agnyam palayeyuhu. So we will learn about this later. Palayeyuhu, you must iti arte. So there are two artha. One is you must. The other one is you know, it may happen like that. You may. One is you must, like law. Other one is it may. The ajnam, they may follow. I don't know. Iti arte. Vasura kaha kutra asti saha chora simha. That means he is not a real simha, he is like a chora simha, fake. Chora simha syat. This also probably. The same lakara like this, probably. Syat. Bhavan tatra.
Bhagini.
Tam. Vadatu Bhagini.
Syam iti. The word. Can you give some more sentences so that it becomes more clear? I've always had this doubt about this word, how to use it.
Syat and bhavet, okay? They mean the same. Udaharanartam, shvaha, no, I cannot say aham. So, udaharanartam, shvaha. Shanivasarah asti, that is firm. Shvah Shanivasarah asti. Okay, there is no doubt in that. So we use the as dhatu without any doubt. But the same, shvah vrishtihi bhavet, means it may happen, bhavet.
So you can't bhavati syat.
So when we use syat, we talk about people. Like he is probably a doctor. Saha vaidyah syat. He may be a doctor, like that. Saha simhah asti, that is sure. Saha chora simha syat. He's probably not the real Raja of the Aranya, like that.
So we say bhavet for inanimate and syat for people or animate things.
In general, like that, Bhagini. It's not a close thing. How do we say happen and is, like, you know, very closely connected.
Yeah. Dhanyavada.
Astu. So, Anya Kimapi.
Bhagini, Chora Simhah, could it just mean a thief?
I mean, in the actual literal meaning, thief. But here, it's saying he is not the real king. I am the real king, like that.
Oh, okay.
Not in the literal. Fraud king. Mahadeva also?
Fraud king.
Fraud, yeah, fraud.
Or fake.
Fake, yeah. Astu. Savita Bhagini?
Aam Bhagini, aam asmi.
Vadatu
Bhagini. Evam taritam siham idanim eva marayami. Sa kutra asti padashetu iti basarakah uktavan. Shashakah tam kupa samipam neetavan. Kupam padashitavan cha. Shall I read the next para also, Bhagini?
Anya kopi asti va? Nasti kalo? अस्तु भगिनि भवती एव करोतु.
वासुरक तत्र जले स्वस्य प्रतिबिम्बं दृष्टवान्, क्रोधेन गर्जनं कृतवान्. कूपतः इतोपि उच्चैः प्रतिध्वनि आगतः. वासुरक तं प्रतिबिम्बेव स्वस्य प्रतिस्पर्धनीनं मत्वा तं मारयितुं तस्य उपरि आक्रमणं कृतवान्. कूपमध्ये पतितः सः जले निमग्नं मृतः च. बासुरकः एवं तरितं सिंहम् इदानीम् एव मारयामि. सः कुत्र अस्ति? बासुरकः कोपेन शशकः पृच्छवान् सः चोरसिंहः कुतः अस्ति, सः कुत्र अस्ति प्रदर्शयतु इति बासुरकः उक्तवान्. शशकः तं कूपसमीपे नीतवान् कूपं प्रदर्शिनत्वां च. शशकः बासुरकः कूपसमीपे नीतवान्. बासुरकः तत्र जले स्वस्य प्रतिबिम्बं दृष्टवान्. बासुरकः कूपस्य जले तं प्रतिबिम्बं तम प्रतिबिम्बं दृष्टवान्. अतिकोपेन गर्जयित्वा सः कूपस्य मध्ये प्रतिध्वनिम् आगतः. बासुरकः तं प्रतिबिम्बेव स्वस्य प्रतिस्पर्धनी मत्वा तं मारयितुं तस्य उपरि आक्रमणं कृतवान्. कोपेन बासुरकः कूपस्य कूदितवान्. इस् देयर् अ वर्ड् लैक् देट् भगिनि?
जम्प्ड् इन्टु द वेल्.
कूपमध्ये पतितः सः जले
मृतवान् इति. सम्यक्. मृतः इस् द त प्रत्यय. मृतवान् तावत् प्रत्यय, तावदेव. अस्तु. सो अत्र नूतनविषयः किम् अस्ति, कुत्र अस्ति? प्रदर्शयतु इत्युक्ते दर्शयतु, सूचयतु कुत्र अस्ति इति. तं कूपसमीपं गतवान्, कूपं प्रदर्शितवान् बासुरकः तत्र जले स्वस्य प्रतिबिम्बं. सो अत्र कतिवारं प्रति इति अस्ति, पश्यतु. प्रतिबिम्बं प्रतिस्पर्धिनं बिम्बम् अस्ति. प्रतिबिम्बम् इत्युक्ते रिफ्लेक्षन् बिम्बम् इति ध्वनिः. सो गर्जितवान् सः, प्रथमं गर्जितवान् कूपतः इतोपि उच्चैः प्रतिध्वनिः आगतः. बासुरकः तं प्रतिबिम्बमेव स्वस्य प्रति स्पर्धिनं स्पर्धि अत्रापि स्पर्धि
कॉम्पिटिटर्
स्पर्धि इस् लैक् स्पर्धिन् ओके स्पर्धि स्पर्धिन् सो द्वितीया विभक्ति स्पर्धिनं स्वामिनं स्पर्धिनं मत्वा मीन्स् इति चिन्तयित्वा सः एव मम प्रतिस्पर्धिनम् इति चिन्तयित्वा तं मारयितुं कूपे कूदितवान् पतितवान् कूपे पतितवान् कूदितवान् कूपमध्ये पतितः सः यः कूपे पतितः सः जले निमग्न इत्युक्ते अधः गत्वा जलस्य अधः गत्वा मृतवान् इति. उत्तमं, बहु सुन्दरम् अस्ति.
भगिनि, वन् क्वश्चन्. सिङ्गल् एक्स्क्लमेशन् वि डिस्कस् इट् इस् फार् सम्बोधनम्. एवं कम्स् विद् डबल् एक्स्क्लमेशन्.
अस्तु अस्तु. सो इट्स् लैक् एवं लैक् इस् दट् सो लैक् दट्. उत्तम प्रश्न. सो दिस् इस् अ कामन् वाव् लैक् ओ इस् दट् सो लैक् दट् एवम्. सो वि आर्डिनरि से एवं वा इति, बट् परन्तु अत्र हि इस् लैक् वाट् दट् कैण्ड् आफ् एक्स्प्लनेशन्. अन्य प्रश्नः अस्ति वा? नास्ति अस्तु
भगिनि अहं सेण्टेन्स् स्यात् केन् ऐ से इट्
आम् भगिनि
अत्र तिष्ठः पुरुषः दिलीपस्य पिता स्यात्
प्राबब्लि दिलीपस्य पिता सम्यक् तत्र तिष्ठः पुरुषः दिलीपस्य पुत्रः स्यात् सम्यक् भगिनि सम्यक् अस्तु विभक्तिवल्लर्यां कुत्र स्मः नम्बर् 15 अभवत् अस्तु धन्यवादः भगिनि धन्यवादः महोदय
मयि कृष्ण
मयि कुत् उत्तमम् अस्तु परमेश्वर महोदय भवान् अद्य
जवहर्लाल् नेहरू बालेभ्यः बहु स्निह्वति स्म जवहर्लाल् नेहरू बाल्यं सोरि वेरि फोण्ड् आफ् यङ्ग्स्टर् बाय्स्
अत्र किं चिन्तनीयम् इत्युक्ते स्निह्यति इति क्रियापदम् अस्ति चेत् विभक्ति का
स्निह्यति
सप्तमी विभक्ति बालेभ्यः इति विभक्ति चतुर्थी अथवा पञ्चमी खलु चतुर्थी अथवा पञ्चमी बहुवचनं परन्तु एतत् सम्यक् नास्ति अतः सप्तमी विभक्ति आवश्यकं सप्तमी विभक्तिरूपम् आवश्यकम् बालेषु बालेषु बहु स्निह्यति सम्यक् अग्रे
फ्रेण्ड्लि
आम्
फ्रेण्ड्लि
स्नेहं फ्रेण्ड्लि यस् स्नेहं प्रदर्शयति इति अस्तु सागरी भगिनि
आत्मीयान् विश्वस्य सः हानिं प्राप्तवान् अहं न ऐ डोण्ट् अण्डर्स्टाण्ड् द सेण्टेन्स् भगिनि
आत्मा इत्युक्ते स्वस्य अहम् इति आत्मीयान्
विश्वस्य ट्रस्ट्
Trust.
So does it mean that if you don't trust yourself, then you will be in trouble, something like that?
Something like that,
So this will be trust in, so Saptami.
Saptami.
This is Bahuvachanam. So Atmiyeshu. Is that correct?
Ekanimsham Bhagini. आत्मीयेषु आम् परन्तु आत्मीयेषु सम्यक् एव आत्मीयेषु परन्तु तत् कथम् अर्थम् आगच्छति इति पश्यामि हानिम् इत्युक्ते किमपि कष्टकरं खलु
इफ् यु डोण्ट् इन् युर् सेल्फ् यु विल् एन्कौण्टर् प्राब्लम् संथिङ्ग् लैक् दट् वी केन् टेक् इट् ऐ सपोस् ऐ डोण्ट् नो विश्वस्य सह हानिं प्राप्तवान् हि हु नाट् ट्रस्ट् हिम्सेल्फ् इन् हिम्सेल्फ्
अहं न इच्छामि एतत् वाक्यम् आत्मीयेषु विश्वस्य सह हानिं प्राप्तवान् अस्तु
otherwise is there anything else that would more be more appropriate
aham chintyami व्याकरणदृष्ट्या सम्यक् एव, परन्तु अत्र अर्थदृष्ट्या अहं चिन्तयामि कथम् एतद् भवति इति. आत्मीयेषु तत् सम्यक् भवति, परन्तु न प्राप्तवान् इति अपि सम्यक् एव अहं चिन्तयामि.
भगिनी, आर् दे मीनिङ्ग् पीपल् क्लोस् टु यु कीपिङ्ग् ट्रस्ट् आन् देम्, पुटिङ्ग् युर् ट्रस्ट्?
I think that is a better artha bhagini. Atmiya itikte like best people, very close to us. Yeah, I like that bhagini. Yeah,
not trusting one's own close
one. Yeah, people who are very close to us. Atmiyeshi vishvasya saha hanim praptava tat aham angi karomi.
What does that mean? I don't understand the meaning.
वदतु भगिनि, अर्थं वदतु.
He was hurt by trusting people close to him.
Right.
धन्यवादः भगिनि. अस्तु अग्रे
भगिनि क्वश्चन्. When I see this particular sentence to be corrected, how do I figure out what to be changed? Because why can't we change vishvasya?
No, everything. Yeah, that's a very good question. If you look at the instructions, it says vibhakti is wrong.
Yeah, vishvasya is shashti.
No, vishvasya is vishvasya is that what do you call the 11th rupa? It's not vibhakti.
That is not shashti vibhakti. Vishvam vishvasya.
It's not a vibhakti. It is a 11th rupa.
Okay, the problem started.
So, Atmiyan is a vibhakti?
Atmiyan is the vibhakti.
What?
Atmiyan,
is it... I don't know, what
Vithiya, I think.
Vithiya,
it sounds like Vithiya.
द्वितीय बहुवचनरूपं, बट् दट् इस् राङ्ग्. विश्व इति आगच्छति चेत् षष्ठी विभक्ति सप्तमी विभक्ति आवश्यकी.
सो इट् इस् आत्मीयेषु
विश्वस्य सः हानि प्राप्तवान्.
I thought Vishwasya is a Shashti thing, so that can that be changed? I was thinking in that, but I didn't realize that is a word by itself.
अस्तु अग्रे शारदा भगिनी, उषा भगिनी, शारदा भगिनी अभवत् खलु, उषा भगिनी.
एतेन किं भीतः वा भवान्? एतेन द्वितीय किं भवान्
भीतः अस्ति चेत् विभक्ति का
प्रथमा
न का विभक्ति आवश्यकी?
For which one? Bhitaha or Etena? Etena has to be transformed, right? Or Parivarchanam Karu.
Karaniyam Bhagini. Samskrita Bhashayam Vadati Krupaya. Samskrita Bhashayam.
Prayatnam Karumi.
Karota.
Etena.
Yata Vishwasya Iti Padam Asti Che Saptami Vibhakti Avashyaki. Tata Bhitaha Iti Padam Asti Che.
प्रथमा
विभक्ति न भीतः इति प्रथमा विभक्ति, परन्तु भीतः इति पदम् अस्ति चेत् का विभक्ति आवश्यकी?
प्रथमा
न चतुर्थी वा पञ्चमी वा?
ओ
कस्मात् भीतः इति वदामः वा?
एतस्मात्
किं भीतः वा भवान्? एतस्मात् सम्यक् वा?
किं भीतः वा?
एतस्मात् कस्मात् भीतः? सो अत्र तादृशज्ञानम् आवश्यकम्. भीतः विश्वस्य स्निह्यति एतादृशपदम् अस्ति चेत् का विभक्ति आवश्यकी इति. उमाकृष्णन् भगिनी.
कार्यक्रमं समाप्य अनन्तरं सर्वे उत्तिष्ठवन्तः.
अत्र विभक्ति का अत्र अनन्तरम् इति अस्ति.
अनन्तरं चतुर्थी
अनन्तरम् इति पदमस्ति चेत्
चतुर्थी
षष्टि. सम्यक् षष्टि आवश्यकी.
ओ ऐ सेड् द राङ्ग् अहं दोष अहं चतुर्थी.
ओ चतुर्थी वा. अहं षष्टि इति श्रुतवती. कार्यक्रमस्य समाप्त्यनन्तरं सर्वे उत्थितवन्तः. अस्तु सम्यक्. अस्तु अग्रे श्रीनिवास महोदय.
ह्यः अहम् अपगाधेन रक्षितः अभवम्. ओके. रक्षितः रक्षितः इस् द की वर्ड्. रक्षितः मीन्स् पञ्चमी शुक्लम्.
यस् पञ्चमी.
ओके दट् मच् ऐ गाट् इट्. ओके नौ यू हैव टु फिगर आउट वाट् नीड् टु बी चेञ्ज्. ओके ह्यः वोन्ट् बी चेञ्ज्. अहं वोन्ट् चेञ्ज्. अपगादेन दिस् इस् तृतीया. दिस् शुड् बिकम् पञ्चमी. अपगादात्
सम्यक्. अपगादात् रक्षितः अभवन्. अत्र
अण्डर्स्टुड् वाट् ऐ डिड्. ऐ जस्ट् डिड् द ग्रामर् थिङ्ग् बट् ऐ हव् नाट् अबौट् द मीनिङ्ग् आफ् इट्.
नो अपघात मीन्स् एक्सिडेण्ट्.
ओके.
सो अत्रापि न अपघातात् रक्षितः अभवम्. रक्षितः तपते ऐ वास् सेव्ड्.
ओके ऐ एस्केप्ड् फ्रम् एन एक्सिडेंट. ओके
फ्रम् एन एक्सिडेंट. सो अत्र भीतः अपि पञ्चमी, रक्षितः अपि पञ्चमी. इंटरेस्टिंग खलु.
रक्षितः पञ्चमी. दट् ऐ गाट् इट्. फॉर्चुनेटली देयर इज नो कन्फ्यूजन एज़ टू व्हिच नॉट टू बी चेंज्ड बिकॉज़ एवरीथिंग एल्स वाज क्लियर. मीनिंग वाज द प्रॉब्लम.
अस्तु अग्रे अग्रिम अस्ति. युक्तं रूपं चित्वा रिक्ते स्थले लिखत. उदाहरणम् अस्मिन् ग्रन्थे आवलिः गणेशः सङ्गृहीतः अस्ति. सो अत्र उचितं रूपं किम्? धातूनाम् आवलिः वा, धातुभ्यः आवलिः वा, धातुषु आवलिः वा इति. सविता भगिनि.
आं भगिनि. अस्मिन् ग्रन्थे
what does avalihi mean?
Avalihi means a list or like a row. Like deepavalihi idi vadama kala deepanam avalihi. Deepanam avalihi deepavalihi.
Sattami grante sattami ekavachanam.
अत्र आवलिः इत्युक्ते एवमेवम् अस्ति खलु, अथवा एवमेवं भवति लिस्ट् इव भवति अथवा एवं भवति.
भगिनि इस् ग्रन्थे सप्तमी.
अस्मिन् ग्रन्थे सो अत्र वि हाव् टु कान्सन्ट्रेट् आन् धातूनाम् आवलिः वा. धातुभ्यः इत्युक्ते we are giving something to the dhatu athava dhatu tah avalihiva dhatu shu iti 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 vadamah chet amanda dhatu amanda dhatu va from the dhatu athava to the dhatu va dhatu naam va all the dhatu va धातूनां आवलिः गणेशः सङ्गृहीतः अस्ति दीपानाम् आवलिः दीपावलिः धातूनाम् आवलिः धातु धात्वलि सो इट् बिकम् दर् इस् सन्धिः उप प्लस् अ धात्वलि इति भवति धातूनाम् आवलिः सम्यक् धातूनाम् आवलिः किमर्थम् इत्युक्ते धातुषु एकः धातु लैक् अमङ्ग् आल् द धातु वि पिक्ट् वन् इति अस्ति चेत् अर्थं सम्यक् अर्थः सम्यक् भवति धातुभ्यः अपि फ्रम् आल् द धातु वि पिक्ट् वन् इति सम्यक् भवति परन्तु अत्र आवलिः लिस्ट् इति अस्ति चेत् धातूनाम् आवलिः एव आवलिः इति वदामः चेत् बहु सन्ति एकः एव न
सो गणेश सङ्गृहीतः मीन्स् अण्डर्स्टूड् ओर् ग्रास्प्ड्
हि कलेक्टेड् इति गृहीतः सङ्गृहीतः इति भवति
हि कलेक्टेड् अ लिस्ट् आफ् दि धातुस् from the book
no in the book
okay
in the book he collected sangrihitah asti whatever he collected that is in the book sah avalim sangrihitavan avalihi pustake asti grante asti iti astu agre parameshwar अन्य कोऽपि अस्ति वा अस्तु परमेश्वर महोदय
जनाः कवीन् सम्मानयन्ति जनाः कवीन् सम्मानयन्ति
सम्यक् कवीन् सम्माननयन्ति सम्मानयन्ति सो अत्र सम्माननं कुर्वन्ति सम्यक् अस्तु
कविन् द्वितीया
द्वितीया कविभिः तृतीया कवीना
षष्टि
अस्तु अग्रे सागरि भगिनि
तस्मिन् नगरे शास्त्रीयसङ्गीतस्य संख्या अधिका वर्धते
वर्तते मीन्स् अस्ति
अस्ति
अस्ति अत्र सङ्ख्या स्त्रीलिङ्ग अतः अधिका इति भवति अधिकः अधिका अधिकम्
श्रोतॄणां
सम्यक् श्रोतॄणां सङ्ख्या अधिका अस्ति अस्तु सम्यक् श्रोतारः अधिकाः वर्तते सो अत्र सङ्ख्या इति पदं नास्ति चेत् श्रोतारः अधिकाः वर्तन्ते लैक् देट् बट् इट् इस् वर्तते एव दिस् इस् बहुवचनं खलु श्रोतारः बहु इफ् इट् इस् वर्तन्ते देन् श्रोतारः
श्रोतॄणां मीन्स् षष्टि शास्त्रीयसङ्गीतस्य That is why it will be Shashti. Srotrunam.
Ah, Srotrunam. Sangeetasya Srotrunam Sankhya Adhika Vartate.
Okay.
Srotaraha Kim Bhavati Bhagini?
Srotarahi Ittikte Yaha Shunoti Saha Srotar. Srota.
So, Prathama Vibhakti Bahuvachanam?
Ah, Bahuvachanam. सो अत्रापि शास्त्रसङ्गीत शास्त्रसङ्गीतस्य श्रोतारः श्रोताराः अधिकाः वर्तन्ते परन्तु सङ्ख्या इति वदामः चेत् श्रोतॄणाम्
अस्तु भगिनि
अस्तु अग्रे परमेश्वरमहोदय कृतवान् खलु सागरी भगिनी शारदा भगिनी
तिरुवनन्तपुरी
ओ नो न भवान् कृतवान् वा पूर्वं अस्तु सो अत्र शारदा भगिनी
तिरुवनन्तपुरे यानपेटिकाः प्रदत्ताः अतः चतुर्थी विभक्ति
सम्यक् दत्ताः सम्यक् कार्यकर्तृभ्यः सम्यक्
तिरुवनन्तपुरे कार्यकर्तृभ्यः यानपेटिकाः प्रदत्ताः
सम्यक् किमपि कारणं स्वीकृत्य विभक्तिरूपं चेतव्यं तावदेव अस्तु अग्रे उषा भगिनि बालानां
अस्ति
एकनिमिषम् उषा भगिनी प्रश्नः अस्ति इति चिन्तयामि वदतु भगिनि अस्तु अर्थं वदतु भगिनि शारदा भगिनि
यानपेटिका तिरुवनन्तपुरे यानपेटिका Should I tell it in English, Pagini? Because the same thing has come. The suitcase is given for workers in Tiruvananthapuram.
Avagachati kalu Sagari Pagini.
Pagini, the Vibhakti ka Karya Kartana Shashti
षष्टि सम्यक् कार्यकर्तॄन्
द्वितीया
सम्यक् कार्यकर्तृ अस्तु अग्रे उषा भगिनि
बालानां पोषणं करणीयं बालानां षष्टि बहुवचनम् अस्ति सम्यक् वा
सो अत्र सम्यक् एव बालानां
अभिरुचिम् इस् द्वितीया विभक्ति अस्ति अभिरुचेः सप्तमी अभिरुच्यै
अभिरुचेः पञ्चमी षष्टि
ओके नाट् एबल् टु कम्बैन् द टु ओके अभिरुचेः बालानां षष्टि अस्ति बहुवचनं रुचेः बालानां बालानां षष्टि बहुवचनं
सम्यक् अभिरुचेः पोषणं करणीयं सम्यक् सो अत्र
इस् तृतीया नो चतुर्थी रैट्
अभिरुच्यै चतुर्थी
बहुवचनम्
एकवचनम् अभिरुच्यै
ओके
एभ्यः इस् बहुवचनम् अभिरुचिभ्यः अभिरुचिः इति पदम् अभिरुचिभ्यः बहुवचनं भवति अभिरुचिं
द्वितीयाविभक्ति
अत्र विभज्यप्रयोगः अस्ति पोषणं करणीयं पोषणीयम् इति अस्ति चेत्
पोषणीयम्
पोषणीयः इति अस्ति चेत् अभिरुचिः इति भवति. सो अत्र पोषणं करणीयम्, अभिरुचेः पोषणं करणीयं. सम्यक्. उमाकृष्णन् भगिनी,
भगिनी, वाट् इस् अभिरुचि मीन्?
अभिरुचि मीन्स् इण्ट्रेस्ट्.
So for the children,
we have to encourage the children's interest in something. Let's say Sanskrit. Balanam samskrite abhiruchihi asti. Balanam abhiruchih pochanam karani. Astu.
Chaturthi va bhagini. For interest, for what is the thing? Shashti or?
Karanam kim iti asti chet. Pochanam karaniyam. So atra विभज्यप्रयोगः अस्ति. विभज्यप्रयोगः अस्ति चेत् षष्टिविभक्तिरूपं भवति.
इण्ट्रेस्ट् आफ् द चिल्ड्रन्.
आम्, इण्ट्रेस्ट् आफ् द चिल्ड्रन् वि हाव् टु एन्करेज्, वि हाव् टु
प्रोटेक्ट्.
पोषण मीन्स् वि हाव् टु ग्रो.
ओके, पुष्टि कम्स् फ्रम् द वर्ड्.
पुष्टि करणीयं, पोषणं करणीयम्. अस्तु, अग्रे उमाकृष्णन् भगिनि.
ललिते वर्षा, where is that? Varshikotsavartam bhavati mataram.
Mataram anayatu. Mataram anayatu.
Ditiya.
Ditiya. Matra.
Matra is pratama.
Tritiya. Tritiya. माता इस् प्रथम. माता, मातरं, मात्रा तृतीय. मातरि चिन्ता मास्तु. मातरि सप्तमी. मातरि, मातरि मम विश्वासः अस्ति, मम अतीव इच्छा अस्ति, अतीव प्रेम अस्ति. अस्तु, श्रीनिवास महोदय.
पाठस्य आरम्भे लिखिता अस्ति.
या, दिस् इस् इद् कर्मणि प्रयोगः. लिखिता इति अस्ति, अतः प्रथमाविभक्तिरूपम्.
पाठस्य आरम्भे सूक्तिः लिखिता अस्ति.
सम्यक्, सूक्तिः लिखिता अस्ति. So this is karmani, so therefore prathama vibhakti rupam avashyakam. Samyak. Suktim dvitiya vibhakti suktau.
Suktim dvitiya vibhakti suktau na jana vibhakti.
Saptami vibhakti. Yes. Suktau. Like ratrau, bhumau. अस्तु, सविता भगिनी, विना.
विना शब्देन सह कस्याः प्रयोगः क्रियते? विना शब्देन सह कस्याः विभक्तिं प्रयोगः क्रियते?
कस्याः प्रयोगः क्रियते? विभज्य
प्रयोगः क्रियते, प्रयोगं कृतवान्. इस् इट् विभक्तिं भगिनि? विना शब्देन सह कस्याः विभक्तेन प्रयोगः क्रियते.
सो कस्याः इति अस्ति खलु, सो वि आर् लुकिङ्ग् फार् षष्टि.
सोरि,
स्वागतं, स्वागतं महोदय. सो अत्र षष्टिविभक्ति, अत्र अपि विभज्यप्रयोगः अस्ति खलु, प्रयोगः क्रियते. कस्याः विभक्तेः प्रयोगः क्रियते?
विभक्तेः, विना शब्देन सह कस्याः विभक्ते प्रयोगः क्रियते. ऐ ट्रैड् द फर्स्ट् टु विच् इस् राङ्ग् भगिनि.
विना शब्देन कां विभक्तिं वि केन् से लैक् दट् कां विभक्तिं उपयोगं कुर्मः इति अत्र उपयोगं कुर्मः इति वदामः चेत् अपि विभक्तेः एव भवति. अत्र विभज्य प्रयोगः अस्ति चेत् षष्टि विभक्ति भवति. अस्तु परमेश्वर महोदय, समयः तावत् नास्ति, पश्यामः. सो अत्र अस्तु, अत्र स्थगयाम. अस्तु अस्तु महोदय, वदतु. पृथक्
पृथुकं सः
पृथुकं
कात् पृथुकं ध्वनि
सः इति अस्ति, अतः
धन्यो
दद्नातः योजयित्वा खाद दधि दद्ना सह योजयित्वा खाद. वयं शीघ्रं कुर्मः वा, समापयामः. अस्तु अग्रे सागरी भगिनी, वाली सुग्रीवं
वालिये सुग्रीवं ताडितवान्.
बाहुभ्यां द्विवचनं बाहुभ्यां ताडितवान् वाली सुग्रीवं बाहुभ्यां ताडितवान्. अस्तु शारदा भगिनी,
जनाः भीताः भवन्ति. भीताः अतः पञ्चमी. क्रूरपशुभ्यः जनाः
पशुभ्यः जनाः भीताः भवन्ति. अस्तु सम्यक्. उषा भगिनी,
विश्वासः न करणीयः. वञ्चकेषु जनानां वञ्चकेषु जनेषु विश्वासः न करणीयः.
वञ्चकेषु जनेषु विश्वासः न करणीयः. सम्यक्. उमाकृष्णन् भगिनी,
राजा जनान् रक्षति. राजा रक्षति सप्तमी विपत्ति
पञ्चमी भीतः रक्षति पञ्चमी विपत्तिभ्यः रक्षति. अस्तु श्रीनिवास महोदय, चिन्ता
मास्तु. वस्त्रप्रसारणार्थं बहिः बद्धाः सन्ति. सो वस्त्रप्रसारणार्थं, सो इट् इस् पञ्चमी, क्वश्चन् इस् पञ्चमी. अर्थं किमर्थं
लुक् फार् हियर् बद्धाः. सो अत्र बद्धाः इति बहुवचनरूपं, सन्ति अपि बहुवचनरूपं. सो अत्र बहुवचनरूपं स्वीकरोतु.
ओन्लि रज्जून्
रज्जून् द्वितीया बहुवचनं. सन्ति इति अस्ति चेत् प्रथमा विभक्ति. के सन्ति?
रज्जूः सन्ति एव,
रज्जवः सन्ति. रज्जुः रज्जवः. गुरुः प्रथमा विभक्ति. सन्ति अस्ति चेत् प्रथमा विभक्ति. किम् अस्ति? के सन्ति? रज्जवः सन्ति. रज्जुः रज्जू रज्जवः. अस्तु अन्तिमं सविता भगिनी अन्तिम
हे हे हरि रक्ष माम्
हे हे हरे हरे भगिनी हरे हरे हरी अस्ति चेत् हरि लैक् मैथिली मैथिली इति भवति परन्तु हरि अस्ति चेत् हरे हरे राम इति वदामः खलु हरे राम हरे राम गुरु अस्ति चेत् गुरो अस्तु वयं समापितवन्तः पुस्तकम् आवश्यकं चेत् एकवारम् एतत् पश्यामः अग्रिमवर्गे गीतासोपानं प्रथमभागं प्रति गच्छामः अस्तु अस्तु बहु सुन्दरमस्ति वयं समापयामः
भगिनि
भवतु भगिनि प्रश्नः वा भगिनि प्रश्नः वा भगिनि वदतु अस्तु ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ
धन्यवादः
भगिनि प्रश्नः वा सम् प्राब्लम् इति चिन्तयामि
धन्यवादः भगिनी हेपी थैंक्स् गिविङ्ग्
हेपी थैंक्स्